एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा वार्षिकस्य आयव्ययकस्य कार्यक्रमाणां च क्रियान्वयनं प्रभावकारी विधातुं निर्दिशति। सिम्मप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य आयोजितं आयव्ययक समीक्षा कार्यक्रमं सम्बोधयन् प्रधानमन्त्री देउवा कोविड संक्रमणानन्तरं नेपालस्य आर्थिक अवस्था सुधारोन्मुखा सत्यपि आर्थिक समृद्धे आयव्ययकस्य कार्यक्रमाणां च क्रियान्वयनाय विशेषं बलं दातुं निरदिशत्। वर्तमान सर्वकारस्य संगठनमनु राष्ट्रेण राजनीतिक स्थायित्वं प्राप्तं सर्वकारेण स्थानीय स्तराणां निर्वाचनं च सम्पादितमिति चर्चयन् अवदत् आगामिनां कतिचित् मासानाम् अभ्यन्तरे प्रदेशानां संघस्य च निर्वाचनस्य च सम्पादनात्मकं दायित्वं सर्वकारस्य स्कन्धे वर्तते। प्रधानमन्त्रिणा देवाभिधेन भाषितं सर्वकारस्य त्रयाणामेव स्तराणां मध्ये समन्वयं संस्थाप्य कार्यसम्पादने कार्यशैल्यां च सुधारमानीय जनतायां परिवर्तनस्य अनुभावनम् आवश्यकं वर्तते। प्रधानमन्त्री देववा प्रावोचत् राष्ट्रस्य व्यापारहानेः न्यूनीकरणाय विद्युत उपभोगं प्रवर्ध्य शिलातैलीय पदार्थानाम् उपभोग क्रमेण न्यूनीकर्तव्य कृष्युत्पादने विशेष बलं च प्रदातव्यम्। कार्यक्रमे गृहमन्त्री बालकृष्ण खाण अकथयत् मूल्यवृद्ध्या समाजे अपराधः सुरक्षा समाह्वयश्च वर्धेते इत्यतः मूल्यवृद्धेः निरोधनत्वेन सर्वैः स्वस्वक्षेत्रात् कार्यं सम्पादनीयम्। अर्थमन्त्री जनार्दन शर्मा आयव्ययकस्य क्रियान्वयनाय बलं ददत् अवदत् व्यापारहानेः न्यूनीकरणाय सर्वकारेण कृष्याम् आत्मनिर्भरतायाः वर्धनात्मकाः कार्यक्रमाः विशेष प्राथमिकतया अग्रे वर्धापिताः सन्ति। कार्यक्रमे संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की अभाषत कृषि कार्यार्थं मलस्य अभावेन जनतायां नैराश्यम् उद्भवति ततो राष्ट्रस्य अर्थतन्त्रे एव प्रभाव सृज्यते इत्यतः कृषकेभ्य यथासमयं मलस्य प्रदानत्वेन विशेष योजनया अन्यैः निकायैः अपि कृषि मन्त्रालयेन सह स्थातव्यम्। राष्ट्रिय योजनायोगस्य उपाध्यक्ष डाक्टर विश्व पौडेलः भूमि प्राप्तेः समस्यायाः वृक्षकर्तनस्य विद्युतस्तम्भानाम् अपसारणस्य च कारणैः राष्ट्रिय गौरवस्य आयोजनासु विलम्बनं जायमानमस्तीति तर्कयन् एतन्निवार्य अग्रे वर्धनार्थं परामृष्टवान्। सर्वेषां मन्त्री राज्यमन्त्रिणां मुख्य सचिवस्य सचिवानां च सहभागितायां सम्पन्ने तस्मिन् कार्यक्रमे भाषमाणाः अन्ये मन्त्रिणः राज्यमन्त्रिणश्च राष्ट्रस्य व्यापारहानिं प्रति चिन्तां व्यक्तवन्तः औद्योगिक विकासाय कृष्युत्पादनाय च विशेष बलं दातुं पर्यटन प्रवर्धनस्य ऊर्जो विकासस्य च कार्यक्रमान् विशेष प्राथमिकतया अग्रे वर्धयितुं च परामृशन्। अविराल वृष्टेः कारणेन देशस्य विभिन्नेषु भागेषु जलविप्लव भूस्खलनाभ्यं क्षतिः प्राप्ता वर्तते। म्याग्दी जनपदस्य मालिका ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य रूमस्थानस्य तामेङ ग्रामे भूस्खलनेन विलुप्तानां मध्ये अतिरिक्तस्य जनत्रयस्य शवाः प्राप्ताः सन्ति। ह्य प्रातः वसतेः उपरितः दुरापन्नेन भूस्खलनेन गृहद्वये प्रवाहिते सम्पर्कविहीनानां एकस्यैव परिवारस्य त्रयाणां जनानां शवाः पूर्णावस्थायां प्राप्ताः सन्तीति वडा सदस्यः भक्तबहादुर पुन ज्ञापितवान्। अन्वेषणस्य उद्धारस्य च कार्ये ह्य प्रातःकालादेव विहिते सत्यपि भीषण वर्षाणां नैरन्तर्यस्य भूस्खलनस्य च कारणेन उद्धार कार्ये समस्या उद्भूता आसीत्। भूस्खलनेन पूर्णस्य अवस्थायां नवीन बिक रुजन बिक घामबहादुर बिक राजु बिक रोजी बिक चेति जनानां शवाः प्राप्ताः सन्तीति वडा सदस्यः भक्तबहादुर पुन ज्ञापितवान्। भूस्खलनेन मृतान् जनान् प्रति मालिका ग्रामपालिकायाः अध्यक्षेण वेगप्रसाद गर्बुजा इत्यनेन दुःखमव्यज्य आहतानां जनानाम् उपचारस्य मृतकानां परिवारेभ्यः सहयोगस्य च व्यवस्था विधीयते इति ज्ञापितं वर्तते। अविरालवृष्टेः अनन्तरं नारायणी नद्यां जलस्तरस्य वर्धनानन्तरं त्रिवेणी धाम्नः गण्डकसेतोः सर्वाणि द्वाराणि उद्घाटितानि सन्ति। सामान्यावस्थायाम् अष्टादशद्वाराणि सेतौ उद्घाट्यन्ते। नद्यां जलस्तरस्य वर्धनानन्तरं सर्वाणि द्वाराणि उद्घाटितानि सन्ति। गण्डकसेतोः सर्वेषां द्वाराणाम् उद्घाटनानन्तरं नवलपुरस्य सुस्तासहितेषु नद्याः तटीयक्षेत्रेषु जलविप्लव जलमग्नतयोः समस्या न्यूनी भूता स्थिति नवलपरासी बर्दघाट सुस्ता पूर्व जनपदस्य निमित्त प्रमुख जनपदाधिकारी खिमलाल भूषाल ज्ञापयति। भीषण वर्षाणाम कारणेन भूस्खलनात् अवरुद्ध नारायणगढ़ मुंगलिंग मार्ग संचालित वर्तते। गत सोमवासर से रात्रौ भरतपुर महानगरपालिकाया 29 वडा क्षेत्रस्य केराबारी स्थाने मौरी खोला सेतोः निकटे विपुल परिमाणस्य भूस्खलनस्य कारणेन मार्ग अवरुद्ध आसीत्। गत रात्रितः उभयतः एव मार्ग सुचारू संचालित वर्तते। बहुषु स्थानेषु भूस्खलनेषु सत्स्वपि केराबारी स्थाने विपुल परिमाणस्य भूस्खलनस्य कारणेन भूस्खलनस्य अपसारणाय समय अपेक्षित इति चितवन जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। कपिलवस्तु जनपदे अविरल वृष्ट्या सह दुरापन्नेन जलविप्लवेन प्रवाहणात् विलुप्तयोः द्वयोर्जनयोर्मध्ये एकस्य शवः प्राप्तो वर्तते। वाणगंगा नगरपालिकायाः नवमवडा क्षेत्रस्य बरगदवा स्थाने कोइली नद्या दम्पती प्रवाहिते आस्ताम्। वाणगंगा नगरपालिकायाः सप्तमवडा क्षेत्र निवासिन्यः 26 वर्षीयायाः राममाया सुनार इत्यस्याः शव प्रवाहित स्थानात् एक किलोमीटर मिताद अधः नद्याः तटे प्राप्तः आसीत्। सम्प्रति पिपरा स्थानीय प्रहरी कार्यालयस्य पिपरा सशस्त्र प्रहरी बलस्य वाणगंगा स्थानीय प्रशासन कार्यालयस्य च विशेष समूहेन नद्यां विलुप्तस्य वीरबहादुर इत्यस्य शवस्य अन्वेषण कार्यं विधीयमानं वर्तते। अविराला वृष्टेः पश्चात् दुरापन्नेन भूस्खलनेन ह्य मध्याह्नस्य समये अवरुद्ध गोर्खा आबुखैयनी मार्ग ह्य पुनः संचालितो वर्तते। गोर्खा आबुखैयनी मार्गखण्डस्य 3 किलो घुम्ती स्थाने भूस्खलनस्य अपसारणानन्तरं मार्ग पुनः संचालित इति गोर्खा प्रहरी कार्यालयस्य प्रमुख प्रहरी परीक्षक केदार खनाल अबोधयत्। गृहमन्त्रिणा बालकृष्ण खाण इत्यनेन राष्ट्रस्य विभिन्नेषु स्थानेषु जलविप्लव भूस्खलनाभ्यां प्राप्त क्षतीनां सूचनां प्राप्य सहयोगोद्धार व्यवस्थापनानां कार्ये प्रवर्तनाय निर्दिष्टं वर्तते। गृहमन्त्रिणा खाण इत्यनेन म्याग्दी जनपदस्य मालिका ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य रूमस्थाने दुरापन्नस्य भूस्खलनस्य भरतपुर महानगरपालिकायाः 29 वडा क्षेत्रस्य केराबारी स्थाने दुरापन्नेन भूस्खलनेन प्रापितस्य मार्गावरुद्धस्य चितवन जनपदस्यैव कामना ग्रामपालिकायां दुरापन्नेन भूस्खलनेन प्राप्त क्षतेः उद्धार सहयोगयोः मार्ग संचालनस्य च कृते विधीयमानानां प्रयासानां विषये सूचना गृहीतास्ति। गृहमन्त्रिणा खाण इत्यनेन नेपाल प्रहरिणः गण्डकी प्रदेश प्रमुखं प्रहरी नायब महानिरीक्षकं रामदत्त ज्योतिषिनं म्याग्दी प्रमुख जनपदाधिकारिणं चिरञ्जीवी राणाभिदं चितवन प्रमुख जनपदाधिकारिणं अस्मान् तामाङ इत्यमुं म्याग्दी प्रहरी प्रमुखं तिलक भारतीं च दूरभाषं विदाय घटनानां विषये सूचनां प्राप्य आवश्यक व्यवस्थापनाय एते जनाः निर्दिष्टाः सन्ति। गृहमन्त्रिणा खाण इत्यनेन विपदः व्यवस्थापने समस्यायाम् उद्भूतायां सत्यं मन्त्रालयं सूचयितुं च निर्दिष्टं वर्तते। प्रतिनिधि सभायाः गतदिवसीयो पवेशे विभिन्न विषयकं विधेयकत्रयं विचार्यतामिति प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे उद्योग वाणिज्य पूर्ति मन्त्रिणा दिलेन्द्र प्रसाद बडु इत्यनेन प्रस्तुतः एतद् वैक्रमाब्दं शपथ सम्बद्ध विधेयकं गत विक्रम वर्षीय स्तरीकृत मापन तोलन पञ्चम संशोधन विधेयकं प्रत्यायन विधेयकं च विचार्यन्ताम् इति प्रस्तावः सर्वसम्मत्या स्वीकृतः। त्रीणि एव विधेयकानि राष्ट्रियसभातः ससन्देशं प्राप्तानि सन्ति। उपवेशे राष्ट्रियसभातः ससन्देशं प्राप्तं वर्षद्वयपूर्वस्य पेयजल स्वच्छीकरण विधेयकं प्रस्तुतं वर्तते। तत्पूर्वम् उपवेशस्य शून्य समये विशेष समये च सांसदाः जलविप्लव भूस्खलनाभ्यां प्रभावितानां जनानां उद्धार सहायता पुनस्थापनानां खोटाङ जनपदं केन्द्रो बिन्दुं विदाय श्रावणस्य 15 दिवसे दुरापन्नेन भूकम्पेन प्राप्त क्षतीनां भौतिक संरचनानां निर्माणस्य कृते सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः परोपवेशः श्रावणस्य 22 दिवसे रविवासरे पूर्वाह्नस्य 11 वादने वस्ता। इति समाचारः।